एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। राष्ट्रपतेः रामचन्द्र पौडेलस्य प्रधानमन्त्रिणः केपी शर्मा ओलिनस्य मध्ये मेलवार्ता सम्भूता अस्ति। शीतलनिवासवर्तिनी राष्ट्रपतिभवने ह्य सम्भूते अनयोर्मेलने देशस्य सामयिक विषयेष् विमृष्टमस्तीति राष्ट्रपतेः कार्यालयेन ज्ञापितम् वर्तते। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री नवल किशोर शाह सुरी महिलानाम् अधिकाराणाम् रक्षायै संविधानस्य व्यवस्थायाः क्रियान्वयनाय प्रतिबद्धताम् व्यनक्ति। पञ्चदशोत्तरैकशततम अन्तर्राष्ट्रिय महिला दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री सुरी एवं प्रतिबद्धताम् व्यक्तवान्। कार्यक्रमे उपसभामुख इन्दिरा राणा महिलानां विषये संविधाने विद्यमान व्यवस्थायाः अधिकाराणां क्रियान्वयनं विधातव्यमिति बलं दत्तवती। कार्यक्रमे राष्ट्रिय सभायाः उपाध्यक्ष विमला घिमिरे, राष्ट्रिय मानव अधिकार आयोगस्य अध्यक्ष तप बहादुर मगर, राष्ट्रिय महिला आयोगस्य अध्यक्ष कमला पराजुली, प्रतिनिधि सभायाः महिला सामाजिक समितेः सभापतिः किरण कुमार शाहश्च महिलानां विभिन्नान् विषयान् उत्थापितवन्तः। एवमेव अन्तर्राष्ट्रिय श्रमिक महिला दिवसस्य अवसरे विभिन्न राजनैतिक दल निकटस्य संघटनैः आयोजितासु अन्तर्क्रियासु विभिन्न राजनीतिक दलानां नेतृभिः महिलानां सम्बन्धे संविधाने विहिताया व्यवस्थायाः अधिकाराः विधिं निर्माय क्रियान्वेतव्या इति बलं प्रादात्। अवसरेऽस्मिन् नेपाली कांग्रेस दलस्य केन्द्रीय महिला विभागेन ह्य सानिपा वर्तिनी दल केन्द्रीय कार्यालये आयोजिते कार्यक्रमे सभापतिः शेरबहादुर देउवा महिलानाम् अधिकाराणाम् सम्बन्धे नेपालः अन्य देशेभ्य अग्रावस्थायाम् वर्तते इति प्रावोचत्। कार्यक्रमे दलस्य सहमहामन्त्री महालक्ष्मी उपाध्यायः, नेपाली कांग्रेस दलस्य केन्द्रीय सदस्य परराष्ट्र मन्त्री च आर्जु राणा देउवा च विचारान् व्यक्तवत्यौ। सुनसरी जनपदस्य इटहरी नगरपालिकायाम् बसयान विश्रामस्थल निर्माणस्य संविधायाः मास षड्केभ्य पूर्वमेव निर्माण कार्यम् सम्पन्नमस्ति। उपमहानगरपालिकायाः नवम वडा क्षेत्रस्थे बसयान विश्रामस्थले तलत्रययुतेन परिभ्रमण भवनेन सहितस्य बसयान विश्रान्तिस्थलस्य निर्माण कार्यम् सम्पन्नमस्तीति उपमहानगरपालिकायाः प्रवक्ता दिवस पोखरेलः अज्ञापयत्। देशे अधिकासु योजनासु अस्तव्यस्तासु सतिषु एकविघाः परिमिते क्षेत्रे विद्यमाने बसयान विश्रान्तिस्थले नवकोटिनाम् अष्टचत्वारिंशल्लक्षाणाम् रूप्यकाणाम् व्ययेन सौविध्य सम्पन्नस्य परिभ्रमण भवनस्य निर्माण कार्यम् सम्पन्नमस्तीति उपमहानगरपालिकया ज्ञापितम् वर्तते। गृहमन्त्री रमेश लेखकः निगदति भूकम्पानन्तरं पुनर्निर्माणस्य पुनस्थापनायाश्च कार्यं सर्वकारेण प्राथमिकतायां संस्थाप्य कार्यं विधीयमानमस्ति। अछाम जनपद समन्वय समितेः कार्यालये स्थापितस्य जनपद भूकम्पीय पुनर्निर्माण पुनस्थापना योजना क्रियान्वयन कार्यालयस्य ह्य उद्घाटनं विदधानः गृहमन्त्री लेखकः स्रोतः साधनानुसारेण सर्वकारेण भूकम्प पीडितेभ्य सहयोगः विधीयमानोऽस्तीति अवदत्। गतवर्षस्य कार्तिकमासे दुरापन्नात् भूकम्पात् प्रभावितान् जनान् यावत् सहजतया सेवां प्रवाहयितुं स्थापितेन कार्यालयेन अछाम बाजुरा डोटी जनपदानां नागरिकेभ्य सहयोगः विधीयते। भूकम्पात् क्षतिग्रस्तस्य अछाम जनपदस्य बान्नीगढ़ी जयगढ़ ग्रामपालिकायाः तृतीय वडा क्षेत्रस्य चतुर्थ वडा क्षेत्रस्य च लाभग्राहिभ्य आवास पुनर्निर्माणान्तर्गतं प्रथम चरणे 50,000 रूप्यकाणि प्रदत्तानि सन्ति। ह्य एव नेपाल प्रेस युनियन संस्थया डोटी जनपदे आयोजिते कार्यक्रमे गृहमन्त्री लेखकः गणतन्त्रस्य विकल्पः राजतन्त्रं भवितुं न शक्नोति इति अभाषत। गृहमन्त्री लेखकः सर्वकारस्य संघटनात् पूर्वं नेपाली कांग्रेस नेकपा एमाले दलयोः मध्ये सम्भूतायाः संविधायाः अनुसारेण संविधान संशोधनाय कार्यदलस्य निर्माणस्य विषये सहमतिमाधृत्य गृहकार्यम् अग्रे वर्धितम् अस्तीत्यतः सर्वेषां सहमतौ एव संविधानस्य संशोधनं भविष्यति इति अवदत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति सुशासनस्य प्रवर्धनेन सहैव सार्वजनिक सेवायाः प्रभावकारिता सर्वकारस्य प्राथमिकतायां वर्तते। ह्य पोखरायाम् आयोजिते कार्यक्रमे मन्त्री गुरूङ सुशासनस्य प्रवर्धनाय सार्वजनिक सेवा प्रवाहस्य प्रभावकारितायै च सर्वकारेण अध्यादेशस्य माध्यमेन षड् विधयः आनीताः सन्ति इति असूचयत्। पेयजल मन्त्री प्रदीप यादवः भाषते स्वच्छ पेयजलं स्वच्छ जीवनं चेति लक्ष्यं सफलयितुं कार्यं करणीयम्। मोरङ्ग जनपदस्य पथरी शनिश्चरी नगरपालिकायाः पथरी पेयजलायोजनायाः ह्य शिलान्यासं विदधानः मन्त्री यादवः एकं गृहं एका नलिका चेति अभियानेन सर्वेषां नागरिकाणां गृहपरिसरे शुद्धं पेयजलं प्रदातुं सर्वकारः क्रियाशीलो वर्तते इति अवोचत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः जनतायाः परिवर्तनस्य क्रमे सर्वहि राजनीतिकदलैः एकीभूय कार्यं कर्तुं बलं ददाति। रौतहट जनपदस्य गरूडा नगरपालिकायां ह्य आयोजिते कार्यक्रमे अध्यक्षः प्रचण्डः विपन्नवर्गस्य उत्थानस्य कार्यं सर्वेषां राजनीतिकदलानां दायित्वं वर्तते इति अवोचत्। समाजवादस्य कृते जनतायाः सामाजिकार्थिक रूपान्तरणम् अनिवार्यमस्तीत्यतः सर्वैः तत्र केन्द्रितैर्भाव्यम् इति अध्यक्ष प्रचण्डः अवदत्। चीनदेशस्य तिब्बतस्थे काउण्टीस्थाने केन्द्रबिन्दुं विधाय दुरापन्नस्य भूकम्पस्य प्रकम्पनं काष्ठमण्डपसहितेषु देशस्य विभिन्नेषु भागेषु अनुभूतमस्ति। राष्ट्रिय भूकम्प मापनानुसन्धान केन्द्रस्य अनुसारेण ह्य दिवा पञ्चत्रिंशत् कलोत्तर द्विवादने काउण्टी क्षेत्रे केन्द्रबिन्दुं विधाय 10.9 स्केल परिमितं भूकम्पं दुरापन्नमासीत्। एतत्पूर्वं गत पौषमासस्य त्रयोविंशे दिवसे तस्मिन्नेव स्थाने 7 स्केल परिमितः भूकम्पः दुरापन्न आसीत्। एवमेव ह्य प्रातः 20:00 बागलुङ जनपदस्य खुखानी स्थानं केन्द्रबिन्दुं विधाय 10.14 स्केल परिमाणस्य ह्य प्रातः 4:43 म्याग्दी जनपदस्य मुरी क्षेत्रे केन्द्रबिन्दुं विधाय 4.25 स्केल परिमाणस्य च भूकम्पः दुरापन्नः आसीत्। नेपाली कांग्रेस दलस्य नेता डाक्टर शेखर कोइराला आर्थिक विकासाय विदेशे विद्यमानानां नेपालीनां निवेशनस्य प्रवेशनस्य वातावरणं निर्मातुं सर्वकारम् अनुरुणद्धि। ह्य झापा जनपदस्य बिर्तामोड स्थाने आयोजितायां स्वदेशात् विदेशं यावत् इति विषयिण्यां कोशी प्रदेश स्तरीयान्तर क्रियायां डाक्टर कोइराला निवेश मैत्रिणी वातावरणे निर्मिते सति देशं समृद्धि मार्गे अग्रे वर्धयितुम् अधिक समयं नापेक्षिते इति धारणां व्यक्तवान्। रूस देशस्य आक्रमणे निपत्य युक्रेन देशस्य पूर्वभागे न्यूनतोऽपि 20 जनाः मृताः सन्ति। रूस देशेन युक्रेन देशस्य विभिन्नेषु नगरेषु 31 अधिकेषु क्षेप्यास्त्रेषु प्ररिदेतृषु विपुलमात्रायां क्षतिः सम्भूता अस्ति इति ज्ञापितं वर्तते। अमेरिकादेशीय राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन रूसदेशाय नूतन प्रतिबन्धनस्य शुल्कवर्धनस्य च प्रत्यादेशनस्य प्रदत्तस्य समये रूसदेशेन युक्रेन देशोपरि विमानाक्रमणं विहितं वर्तते इति समाचारः।